सर्वेभ्यः राम राम राम। तत्र किञ्चित् तान्त्रिकक्लेशाः आसन् तदर्थं कृपया क्षम्यताम्। इदानीं ध्यानश्लोकेन प्रारम्भं कुर्मः। यद्यपि किञ्चित् विलम्बो जातः अद्य, यावत्पर्यन्तं शक्यते तावत् पाठं कुर्मः। गुरुरेव गतिः गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे। न गुरोः परमं शिशुरस्मि गुरोः, मतिरस्ति गुरौ मम पाहि गुरो। गुरुरेव गतिः गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे। न गुरोः परमं शिशुरस्मि गुरोः, मतिरस्ति गुरौ मम पाहि गुरो। गुरुरेव गतिः गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे। न गुरोः परमं शिशुरस्मि गुरोः, मतिरस्ति गुरौ मम पाहि गुरो। पार्थाय प्रतिबोधितां भगवता, नारायणेन स्वयं व्यासेन ग्रथितां पुराणमुनिना। मध्ये महाभारतम् अद्वैतामृतवर्षिणीं भगवतीं अष्टादशाध्यायिनीम् अम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम्। नमोऽस्तु ते व्यासविशालबुद्धे, फुल्लारविन्दायतपत्रनेत्र, येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः। वसुदेवसुतं देवं कंसचाणूरमर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुं। मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं, यत्कृपातमहं वन्दे परमानन्दमाधवम्। सर्वेभ्यः राम राम राम। गतकक्षायाम् अस्माभिः चतुर्थ पञ्चम षष्ठश्लोकाः दृष्टाः। तत्र तावत् के महारथाः युद्धार्थं सन्नद्धाः इति दुर्योधनः स्वाचार्यं द्रोणाचार्यं प्रति वदति। अत्र युद्धे के आगताः इत्युक्ते युयुधानः, विराटः, महारथः द्रुपदः, दृष्टकेतुः, चेकितानः, वीर्यवान् काशिराजः पुरुजित्, कुन्तिभोजः, नरपुङ्गवः शैभ्यः, विक्रान्तः युधामन्युः, वीर्यवान् उत्तमौजाः सौभद्रः, पञ्च द्रौपदेयाः, अन्ये भीमार्जुनसमाः शूराः सर्वे समागताः इति दुर्योधनः द्रोणाचार्यं प्रति वदति। के तत्र आगतवन्तः इति दुर्योधनः वदति। तत्र महारथः इत्युक्ते कः इति अस्माभिः गतकक्षायां दृष्टमस्ति। महारथस्य लक्षणं तावत् एको दशसहस्राणि योधयेद्यस्तु धन्विनां, शस्त्रशास्त्रप्रवीणस्तु महारथ इति स्मृतः। एवं शस्त्रशास्त्रप्रवीणः न तु केवलं शस्त्रप्रवीणः न तु केवलं शास्त्रप्रवीणः, यः उभयोर्मध्ये तत्र प्रवीणः, पण्डितः, विद्वान् यः धुरीणः अस्ति, अपि च यः दश वा एकादशसहस्रसैनिकान् धन्विनां यः योधयेत्, यः युद्धं कर्तुं शक्तः, सः एव महारथः इति ख्यातः। अनन्तरं सर्वे इति पदं पश्यामश्चेत् तत्र सर्वे अत्र ये उपरि सन्ति सर्वे भीमार्जुनसमाः सन्ति, न तु एकः नैव, तत्र सर्वे भीमार्जुनसमाः, सर्वे महारथाः सन्ति इति तत्र सर्वे इति पदस्य उपयोगः कृतः अस्ति। युधि कुत्र कुत्र अन्वयः करणीयः तत्र पूर्वभागे वा उत्तरभागे वा श्लोके इति वयं पश्यामश्चेत् तत्र युधि अस्मिन् युद्धे सर्वे युद्धे भीमार्जुनसमाः सन्ति इति स्वीकर्तुं शक्यते. युद्धे युद्धकाले युद्धविद्यायां सर्वे भीमार्जुनसमाः इति स्वीकर्तुं शक्यते. इदानीं के जनाः सन्ति इति यदि वयं किञ्चित् तेषां चरितं पश्यामश्चेत् तत्र अतीव विशेषतया वर्तते. विशेषटिप्पणीभागे के सन्ति इति पश्यामः. वि विल् सी इन् द हूस् हू सेक्षन् हू आर् आल् हू हव् बीन् मेन्शन्ड् हियर् वाट् इस् देर् बेक्ग्रौण्ड् तत् पश्यामः. युयुधानः महान् कृष्णभक्तः आसीतयम् एषः महान् कृष्णभक्तः अपि च सः अर्जुनस्य शिष्यः आसीत्. एवं सः अर्जुनशिष्यः अर्जुनेन अस्त्रविद्यां धनुर्विद्यां सः अध्ययनं कृतवान्. हि लर्न्ड् द आर्चरी फ्रम् अर्जुन. एण्ड् देन् यादववंशीयः एषः. हि बिलाङ्ग्स् टु द यादववंश. एण्ड् इफ् यु सी हीस् बीन् मेन्शन्ड् इन् द उद्योगपर्व चाप्टर् 81 इन् द वर्सस् 5-8 हीस् बीन् मेन्शन्ड् स्पेशलि एस् बीङ्ग् द disciple of Arjuna. And he was the grandson of a person by name Sini, who belonged to the Yadava clan, again being mentioned in Drona Parva chapter 144 has been mentioned there. He was very attached to Krishna, a great Maharathi and very powerful Maharathi. He survived through the entire war of Mahabharata, and then later on when the Yadava clan, their mutual fight happened during that, he met his death during that internal fight between the Yadavas. So this is a brief about Yuyudhana. There seems to be one more mention of another person by name Yuyudhana, but here we are talking about this Yuyudhana, who was a Krishna Bhakta, Arjuna Shishya, a Yadavamshiya. Yaha tatra Yuddhanantaram yaha Yadava Vamsha Kalahe Maranam Praptavan tam vayam idanim vadamaha. The next person we are seeing in the shloka is Yudhano Viratascha. Virata, we know, he was the Matsya Deshadipati, Matsya Rajaha, and he had four children, of which Uttara was the daughter, and the three sons he had called Uttara Kumarah, Shweta Kumarah, Shankar Kumarah. So he had four children. And Uttara later on goes on to marry Abhimanyu. So that is about Uttara. And we also know that Virata was the king, in Virata's kingdom only the Pandavas spent their 1 year of Ajnatavasa, the incognito existence, what they had to do. Pandavas spent their time in the kingdom of Virata. Next, Yudhano Viratascha Drupadascha. Drupada, we have kind of mentioned him in the previous classes, wherein Drupadaha tu Panchala Rajaha Saha. He was Drona Sahapathi. Dronacharya and Drupada studied together in the same Gurukula, and Drupada was the son of King Prishat. King Prishat and Sed Bharadwaja were great friends. So that is why both Dronacharya and Drupada spent their early days in the ashrama of Bharadwaja. Both were very good friends. And then when Drupada became a king, later on Drona goes to see him when they were in utmost poverty. Drona goes to see him, that is when Drupada fails to recognize him. So Drona gets very angry. He comes back and he trains the Kaurava Pandavas, and then he sends Arjuna and the Pandavas to go fight Drupada and get him fully get him after defeating him. So they get him, and then that is when he takes half the kingdom of Drupada and releases him and sends him off. So Drupada again has an old enmity to Dronacharya. He had two sons. He had two children. One by name Drishtadyumna, who takes the commanding chief of the Pandava Sainya. So Drishtadyumna Drupada Putra. Anantaram, he had also had a daughter by name Draupadi, also known as Yajnaseni. Her other name was Krishna Dirgha. Krishna iti Strilinga Shabda. Krishna Dirgha. So Draupadi was known as Krishna, and Drupadasya Apatyam Stri Draupadi Yajnaseni iti Aparam Namatasyaha. So this is the brief about Drupada. He was a very great Maharatha, very great in the skill of archery, great Kshatriya hero, and saha Dronena Maritaha. Mahabharata Yuddhe saha Dronena Maritaha. He was killed by Drona in the Mahabharata war. That is about Drupada. Drishtaketuhu. Yadi vayam pashyamascheta Drishtaketuhu Chedi Deshadipatihi saha Shishupalasya Putraha saha Chedi Deshadipatihi saha Anantaram Yuddhe saha api Dronena Maritaha. This is about Drishtaketu. Chekitanah ityeshah Yadava Virah saha Vrishnivamshiyah. So he was also a great Maharathi and a great fighter who had great prowess. And he of the seven Akshohinis which were there, he was leading one entire Akshohini by himself of the Pandava army. So he was the chief of the one of the Akshohini, seven Akshohinis of Pandava army. Sopi Yuddhe Dronena Maritaha. Again Kashi Rajam Pashyamascheta Sopi Mahaviraha Tatra Kashi Raja Krateva Visheshanamasti Viryavan Kashi Rajaha. He has a special Viryavan, and he was a great warrior, which is what we know. There are a few mention of different Kashi Rajas in the Mahabharata, so we don't have a exact name of this Kashi Raja mentioned. We are not able to clearly get that detail, but of course we know that he is a great warrior, and who was in the side of Pandavas. So a few contradicting names are there. Anyways, once some people mention it to be Abibhu as one name, some people given as Krodhahanta or Senavindu. So there were quite different names have been mentioned. Anyways, and Purujit and Kunti Bhoja, both of them were the brothers of Kunti. So hence they were kind of maternal uncles of Pandavas, Pandava Matulaha. Purujit and Kunti Bhojaha, and in the Yuddha they were killed by Drona himself. Yuddhe Dronena Maritaha. So these are the people whom he has been mentioning, and we kind of see that link later on. All these people have been killed by Drona himself. Most of the people have been mentioned now. Next is Kunti Bhojaha. Kunti Bhoja we have already seen. Then is Shaibya. He was the father-in-law of Yudhishthira, which is what we get to see. Shaibya's daughter's name was Devika, who was given in marriage to Yudhishthira. And Shaibya was also a great Maharathi, but he was also a very nice person by character. Charitrena saha yuktaha asite evam narapungavaha Shaibyaha is the adjective given to this person Shaibya. Evam Shaibyaha Shibideshadipatihi saha Devika janakaha ativa shilavan gunavanasti evam narapungavaha narashreshtaha iti akhyataha asti saha. Yudhamanyuhu. Next, if we see Yudhamanyuhu and Uttamojaha. Yudhamanyu and Uttamojaha, both are brothers and both belong to the பாஞ்சாலதேஷ ஆக்சுவலி வெரி வெரி எக்ஸ்ட்ரீம்லி டேலண்டட் அண்ட் எக்ஸ்ட்ரீம்லி பிரேவ் பீப்புள் விச் இஸ் வை விக்ராந்த யுதாமன்யுச்ச விக்ராந்த உத்தமௌஜாச்ச வீரியவான் போத் ஆஃப் தெம் ஹாவ் ஸ்பெஷல் விசேஷனாஸ் அப்ஜெக்டிவ்ஸ் விச் டிஸ்கிரைப் தேர் பிரேவரி தேர் ஸ்கில் தேர் மைட்டினஸ் அண்ட் தேர் skills which are there, which they have. Yevam. And both of them, incidentally, were killed by Ashwatthama in the Mahabharata Yuddha. Abhimanyuhu, we all know him, quite a famous person, the son of Arjuna and Subhadra. And he married Virata's daughter Uttara, Uttaram Parinitavansaha. And he was the only person, apart from Arjuna, who knew how to cut through the Chakravyuha Bheda and go inside. But he did not know the full art of also coming out of it successfully. So we know the story of Abhimanyu. And Draupadeyaha, if we see Draupadeyaha, these are the five sons of Draupadi. By names they were Prativindya, Shruta Soma, Shruta Karma, Shatanika and Shruta Sena. So these were the names of the five Panduputras. So Drupado, Draupadeyascha, Sarva Eva, Maharataha. So these were the Maharathis who have been there in the Pandava army. So this is the account given by Duryodhana, and then he is listing out all the people and telling, with these people you have to take some clear action. And also then he tells, hetavat paryantam pandava sainye ye asan tesham namani aha muktavan idanim asmakam sainye ye santi தேஷாம் நாமானி வதாமி. லெட் மீ டெல் ஹூ ஆர் ஆல் தேர் இன் த கௌரவ ஆர்மி, விச் இஸ் வை ஹீ டெல்ஸ் நெக்ஸ்ட். அஸ்மாகம் து விசிஷ்டாயே, புனஹ அனுவதந்து, ப்ளீஸ் ரிப்பீட் த ஸ்லோக டூ டைம்ஸ். அஸ்மாகம் து விசிஷ்டாயே தான் நிபோதத்விஜோத்தமா நாயகா மம சைன்யஸ்ய சம்ஞார்த்தம் தான் ப்ரவீன்மிதே, சம்ஞார்த்தம் தான் ப்ரவீமிதே. புனஹ பூர்ணம் ஸ்லோகம் வதந்து. அஸ்மாகம் து விசிஷ்டாயே தான் நிபோதத்விஜோத்தம நாயகா மம சைன்யஸ்ய சம்ஞார்த்தம் தான் ப்ரவீமிதே. சப்தம ஸ்லோக பிரதமாத்யாய. The 7th shloka, 47 shlokas of 700 shlokas of the Bhagavad Gita. Padachedaha asmakam tu vishishtaha ye santi tan nibodha dvijottama nayakaha mama sainyasya samgnyartham tan bravimi te. Tatra anvayam kartra karma kriyam vadantu. தத்ர க்ரியாத்வயம் வர்த்ததே, சமீச்சீனம், நிபோத அஸ்தி, ப்ரவீமி அஸ்தி. ஏவம் க்ரியாத்வயம் அஸ்தி சேத் தத்ர வாக்கியத்வயம் கர்த்தும் சக்யதே. ஃபார் சிம்பிளிசிட்டி சேக் வி கேன் டூ டூ சென்டென்சஸ், வி ஹவ் டூ வேர்ட்ஸ், ஆக்ஷன் வேர்ட்ஸ். ஸோ தேர்ஃபோர் வி கேன் டூ டூ சென்டென்சஸ். ஸோ ஃபார் நிபோத வாட் வில் பி த கர்த்திருக்கர்ம? ఇట్ ఇస్ ఇన్ నిబోధ ఇస్ ఇన్ మధ్యమ పురుష ఏకవచన దేర్ఫోర్ ఇట్ విల్ బి త్వం నిబోధ తావదేవ యు నో దెమ్ యు నో హూమ్ కాన్ నిబోధ తాన్ నిబోధ తాన్ మమ సైన్యే వర్తమానాన్ సైనికాన్ మహారథాన్ నిబోధ హే ద్విజోత్తమ హే ద్రోణాచార్య అస్మాకం సైన్యే ఏ విశిష్టాః సంతి తాన్ త్వం నిబోధ యు గెట్ టు నో దెమ్ యు ట్రై టు నో దెమ్ సో వాట్ విల్ ఐ డూ అహం మమ సైన్యస్య నాయకాః తాన్ తే సంజ్ఞార్థం బ్రవీమి అహం బ్రవీమి ఇది ద్వితీయ వాక్యం ఫస్ట్ సెంటెన్సెస్ త్వం నిబోధ సెకండ్ సెంటెన్సెస్ అహం బ్రవీమి త్వం తాన్ సైనికాన్ నిబోధ అహం సైనికానాం నామ తే సంజ్ఞార్థం బ్రవీమి అహం బ్రవీమి ఇస్ ద సెకండ్ సెంటెన్స్ సో వెరీ వెరీ సింపుల్ వాక్యం హే ద్రోణాచార్య అస్మాకం తు సైన్యే ఏ విశిష్టాః అసాధారణః యోద్ధారః ఏ సంతి తాన్ త్వం జానీహి అహం మమ సైన్యస్య నాయకాః ఏ సంతి తేషాం నామాని తవ సమ్యగ్ జ్ఞానార్థం పునః ఏకవారం నివేదయామి బ్రవీమి వదామి తావదేవ అతీవ సరళమస్తి శ్లోకం తు అతీవ సరళమస్తి ద్విజోత్తమ అకారాంతః పుల్లింగః సంబోధన ప్రథమైకవచనం అస్మాకం దకారాంతః త్రిలింగకః అస్మత్ శబ్దః సర్వనామ శబ్దః షష్ఠీభక్తి బహువచనం తు అవ్యయం విశిష్టాః అగైన్ వి హావ్ సీన్ సిమిలర్లీ పుల్లింగ ప్రథమ బహువచనం అకారాంతః కృదంత శబ్దః అగ్రే పశ్యామః యే యోద్ధారః ఏ తాన్ ఏ ఇస్ యద్ శబ్ద దకారాంత సర్వనామ శబ్ద పుల్లింగ ప్రథమ బహువచనం తాన్ దకారాంత పుల్లింగ సర్వనామ శబ్ద ద్వితీయ భక్తి బహువచనం ఏ సంతి తాన్ నిబోధ 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 బుధ్ అవగమనే ధాతు ని ఉపసర్గపూర్వక నిబోధ ఇది అస్తి లకార చింతయతు కస్మిన్ లకారే వర్తతే నిబోధ నిబోధ త్వం నిబోధ లోట్ లకారః బుధ అవగమనే ధాతుః ని ఉపసర్గపూర్వకః ని ప్లస్ యది పశ్యామశ్చేత్ నిబోధతు నిబోధతాత్ నిబోధతాం నిబోధంతు నిబోధ నిబోధతాత్ నిబోధతం నిబోధత నిబోధాని నిబోధావ నిబోధామ ఏవమస్తి తత్ర ఫామ్స్ భవాదిగణ ధాతుః లోట్లకారః పరస్మైపది రూపాణి ఏవం సంతి మమ అస్మత్ శబ్దః పూర్వమేవ దృష్టమస్తి షష్ఠీభక్తి ఏకవచనం సైన్యస్య అకారాంత నపుంసకలింగ షష్ఠీభక్తి ఏకవచనం నాయకాః నాయకాః అకారాంత పుల్లింగ ప్రథమ బహువచనం తద్ వయం జానీమః తాన్ తత్ శబ్దః ద్వితీయ బహువచనం తే తుభ్యం తే వదామి తుభ్యం చతుర్థి ఏకవచనం సంజ్ఞార్థం తవ సంజ్ఞార్థం అహం వదామి తే సంజ్ఞార్థం అహం తుభ్యం వదామి for I will tell this for your information aham vadami akaraanta samgnyartham akaraanta namsakalinga dvitiya ekavachanam tatra kriya visheshanam bhavati agre tatra vishesha tippani bhage pashyamah bravimi again ativa saralam asti param tatra samyak drashtavyam asti brunch vyaktayam vachi bru vyaktayam vachi dvikarmakah asti పరస్మైపది అదాదిగణీయ లట్లకార ఉత్తమపురుష ఏకవచనం తత్ర ప్రాయశః ప్రథమపురుష ఇది అస్తి తత్ కించిత్ వాక్యదోషః ముద్రణదోషః అస్తి నో చేత్ బ్రవీమి ఉత్తమపురుష ఏకవచనం తత్ర రూపాణి ఏవం సంతి బ్రవీతి బ్రూతః బ్రువంతి బ్రవీషి బ్రూతః బ్రూత బ్రవీమి బ్రూవః బ్రూమః एवम् अस्ति। एवं क्रियापदद्वयम् अस्माभिः दृष्टमस्ति अस्मिन् श्लोके। अर्थः सरलः अस्ति, हे द्विजोत्तम, अस्माकं तु ये विशिष्टाः शूराः सन्ति तान् त्वं निबोध। मम सैन्यस्य ये ये नायकाः महारथाः धीराः शूराः सन्ति तान् ते सम्यक् ज्ञानार्थम् अहम् इदानीं ब्रवीमि। ओ बेस्ट् आफ् ट्वैस् बार्न्, हियर् द नेम्स् आफ् दोस् हू आर् डिस्टिङ्ग्विश्ड् द लीडर्स् आफ् पयाबि, दीस् ऐ रिलेट् यू फार् युवर् इन्फर्मेशन्। तत् आङ्ग्लार्थः। व्याकरणभागं पश्यामश्चेत् वि सी द व्याकरणभाग, अस्माकं तु, अस्माकं तु अनुस्वार सन्धि, म विद् द स्ट्रोक् बीङ्ग् रिप्लेस्ड् बै द अनुस्वार डाट्, अस्माकं तु विशिष्टाः ये, तत्र विशिष्टाः ये विसर्गस्य लोपः भवति, नायकाः मम अपि विसर्गस्य लोपः भवति, विशिष्टा ये नायका मम भवति, संज्ञार्थं तान्, अगेन् अनुस्वारसन्धि, म विद् द स्ट्रोक् बीङ्ग् रीप्लेस्ड् बै अनुस्वार डाट्। द्विजोत्तमः, द्विजेषु उत्तमः, द्विजोत्तमः, सप्तमी तत्पुरुषसमासः, द बेस्ट् अमङ्ग् आल् द्विजास्, पुरुषश्रेष्ठः, पुरुषेषु श्रेष्ठः, समरसिंहः, समरेषु सिंहः, समरे सिंहः, एवं तत्र सप्तमी तत्पुरुषसमासः भवति। संज्ञार्थं, वेन् वि सी संज्ञायै इदं, संज्ञार्थं, चतुर्थी तत्पुरुषः, नित्यसमासः, अगेन् स चतुर्थी वक्ति अर्थं ददाति, संज्ञार्थम्, अहं कार्यार्थं गच्छामि, कार्याय गच्छामि। सो एवं तत्र कार्यकृते संज्ञायै इदं, तत्र संज्ञार्थं भविष्यति। विशिष्टः, वि उपसर्गपूर्वक शिष्यधातोः क्तप्रत्ययः विशिष्टः इति भवति, विशिष्यते इति विशिष्टः, ये ये विशिष्टाः अतीव विशेषरूपेण स्थिताः तान् सर्वान् अहं वदामि इति अर्थः अत्र। एवम् अस्माभिः दृष्टमस्ति अस्मिन् सप्तमश्लोके। कोऽपि संशयो वर्तते वा? पुनः एकवारं श्लोकं वदामः, अनन्तरम् अग्रिमश्लोकार्थं गच्छामः। अद्य समयः पूर्णतया न लब्धमस्ति, तत्र तान्त्रिकक्लेश कारणेन अस्माभिः किञ्चित् समयं नष्टम् अभूत्, तत्र कृपया क्षम्यताम्। आगामि दिवसेषु तत् वयं काम्पन्सेट् कुर्मः। एकवारं वदन्तु, अस्माकं तु विशिष्टा ये तान् निबोध द्विजोत्तम, नायका मम सैन्यस्य, संज्ञार्थं तान् ब्रवीमि ते। इदानीम् अष्टमश्लोकम् एकवारं वदामः, तत्र श्लोकं वदामः, पदच्छेदं पश्यामः, तत्र कर्तृकर्म सर्वं चिन्तयित्वा आगामिकक्षायां पश्यामः किं किं कर्तुं शक्यते इति। भवान् भीष्मश्च कर्णश्च, पुनः वदन्तु, भवान् भीष्मश्च कर्णश्च, कृपश्च समितिञ्जयः, अश्वत्थामा विकर्णश्च, सौमदत्तिस्तथैव च, अश्वत्थामा विकर्णश्च, सौमदत्तिस्तथैव च। प्रथमाध्याये अष्टमश्लोकः, तत्र पदच्छेदं पश्यामश्चेत्, भवान् भीष्मः च, कृपः च, समितिञ्जयः, अश्वत्थाम विकर्णः च, सौमदत्तिः तथा एव च, एवमस्ति। तत्र समयो जातः, आगामिकक्षायां पुनः पश्यामः। तावत्पर्यन्तं यत्र योगेश्वरः कृष्णो, यत्र पार्थो धनुर्धरः, तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम, गुरुरेव गतिः गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे, न गुरोः परमं शिशुरस्मि, गुरोर्मतिरस्ति गुरौ, मम पाहि गुरो, गुरुरेव गतिः गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे, न गुरोः परमं शिशुरस्मि, गुरोर्मतिरस्ति गुरौ, मम पाहि गुरो। सर्वेभ्यः अनन्तानन्त धन्यवादाः. राम राम राम. आगामी कक्षायां पुनः मिलामः. तावत् पर्यन्तं सर्वेभ्यः शुभं भवतु, क्षेमं भवतु. राम राम राम.